शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये व्यासं वसिष्ठनप्तारं शक्ते पौत्रमकल्मषं पराशरात्मजं वन्दे शुकतातं तपोनिधिं व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः अविकाराय शुद्धाय नित्याय परमात्मने सदैकरूपरूपाय विष्णवे सर्वजिष्णवे यस्य स्मरणमात्रेण जन्म संसार बन्धनात् विमुच्यते नमस्तस्मै विष्णवे प्रभ विष्णवे ॐ नमो विष्णवे प्रभ विष्णवे श्रीवैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः युधिष्ठिरः शान्तनवम् पुनरेवाभ्यभाषत युधिष्ठिर उवाच किमेकम् दैवतम् लोके किम् वाप्येक्यम् परायणम् स्तुवन्तः कम् कमर्चन्तम् प्राप्नुयुर्मानवा शुभम् को धर्मः सर्वधर्माणाम् भवतः परमो मतः किम् जपन्मुच्यते जन्तुर्जन्म संसार बन्धनात् श्रीभीष्म उवाच जगत्प्रभुम् देवदेवमनन्तम् पुरुषोत्तमम् स्तुवन्नाम सहस्रेण पुरुषः सततोत्थित तमेव चार्चयन् नित्यम् भक्त्या पुरुषमव्ययम् ध्यायन् स्तुवन्नमस्यश्च यजमानस्तमेव च अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम् लोकाध्यक्षम् स्तुवन्नित्यम् सर्वदुःखातिगो भवेत् ब्रह्मण्यम् सर्वधर्मज्ञम् लोकानाम् कीर्तिवर्धनम् लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम् एष मे सर्वधर्माणाम् धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डलीकाक्षम् तवैरचैन्नरः सदा परमम् यो महत्तेज परमम् यो महत्तपः परमम् यो महद्ब्रह्म परमम् यः परायणम् पवित्राणाम् पवित्रम् यो मङ्गलाणाम् च मङ्गलम् दैवतम् देवतानाम् च भूतानाम् यो व्ययकृता यतः सर्वाणि भूतानि भवन्त्यादियुगागमे यस्मिंश्च प्रलयम् यान्ति पुनरेव युगक्षये तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रम् मे शृणु पापभयापहम् यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ऋषिर्नाम सहस्रस्य वेदव्यासो महामुनिः छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः अमृतांशुद्भवो बीजम् शक्तिर्दैवकी नन्दनः त्रिसामाहिरयम् तस्य शान्त्यर्थे विनियुज्यते विष्णुम् जिष्णुम् महाविष्णुम् प्रभ विष्णुम् महेश्वरम् अनेकरूप दैत्यान्तम् नमामि पुरुषोत्तमम् अस्य श्रीविष्णोर्दिव्यसहस्रनाम स्तोत्र महामन्त्रस्य श्रीवेदव्यासो भगवान् ऋषिः अनुष्टुप् छन्दः श्रीमहाविष्णु परमात्मा श्रीमन्नारायणो देवता अमृतांशुद्भवो भानुरिति बीजम् देवकीनन्दन स्रष्टेति शक्तिः उद्भव क्षोभणो देव इति परमो मन्त्रः शङ्खभृन्नन्दकी चकृति कीलकम् शाङ्गद्धन्वागदाधर इत्यस्त्रम् रथाङ्गपाणिरक्षोभ्य इति नेत्रम् त्रिसामासामग्रस्तामेति कवचम् आनन्दम् परब्रह्मेति योनिः ऋतुः सुदर्शनकाल इति दिग्बन्धः श्रीविश्वरूप इति ध्यानम् श्रीमहाविष्णु प्रीत्यर्थे श्रीसहस्रनाम जपे विनियोगः ध्यानम् क्षीरोदन्वप्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानाम् मालाक्लुप्तासनस्थस्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूषवर्षैः आनन्दीनः पुनियादलिदलिलगदाशङ्खपाणिर्मुकुन्दाः भूपादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्योचनेत्रे कर्णावाशाशिरोध्यौर्मुखमपि दहनो यस्य वातेयमब्धिः अन्तस्थम् यस्य विश्वम् सुरनरखगो भोगि गन्धर्वदैत्यैः चित्रम् रम् रम्यते तम् त्रिभुवनवपुषम् विष्णुमीशम् नमामि ॐ नमो भगवते वासुदेवाय शान्ताकारम् भुजवशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिहृद्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् मेघश्यामम् पीतकौशेयवासम् श्रीवत्साङ्गम् कौस्तुभोद्भासिताङ्गम् पुण्योपेतम् पुण्डरीकायताक्षम् विष्णुम् वन्दे सर्वलोकैकनाथम् नमः समस्तभूतानामादिभूताय भूभृते अनेकरूपरूपाय विष्णवे प्रभविष्णवे सशङ्खचक्रम् सकिरीटकुण्डलम् सपीतवस्त्रम् सरसीरुहेक्षणम् सहारवक्षस्थलशोभिकौस्तुभम् नमामि विष्णुम् शिरसा चतुर्भुजम् छायायाम् पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्याममायताक्षमलङ्कृतम् चन्द्राननम् चतुर्बाहुम् श्रीवत्साङ्कितवक्षसम् रुक्मिणी सत्यभामाभ्याम् सहितम् कृष्णमाश्रये विश्वम् विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानाम् परमागतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदान्नेता प्रधानपुरुषेश्वरः नारसिंह वपुः श्रीमान् केशवः पुरुषोत्तमः सर्वः शर्वशिवस्थाणुर्भूतादिर्निर्धिरव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः स्वयम्भूशम्भुरादित्यः पुष्कराक्षो महास्वनः अनादिनिधनो धाता विधाता धातुरुत्तमः अप्रमेयो ऋषिकेशः पद्मनाभो मरप्रभुः विश्वकर्मा मनुस्पष्टार्थविष्ठस्थ विरोध्रुवः अग्राह्य शाश्वत कृष्णो लोहिताक्ष प्रतर्दनः प्रभुतस्त्रीककुद्धाम पवित्रम् मङ्गलम् परम् ईशान प्राणद प्राणो ज्येष्ठ श्रेष्ठ प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्श कृतज्ञ कृतिरात्मवान् सुरेशः शरणम् शर्मा विश्वरेता प्रजाभवः अहः संवत्सरो व्याळः प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः वसुर्वसुमना सत्यः सम्मात्मा सम्मितः समः अमोघ पुण्डलीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिरा बभ्रुर्विश्वयो निःशुचिश्रवः अमृतः शाश्वतस्थाणुर्वरारोहो महातपः सर्वगः सर्वविद्वानु विश्वक्सेनो जनार्दनः वेदो वेदविदम् व्यङ्गो वेदाङ्गो वेदवित्कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंष्टश्चतुर्भुजः भ्राजिष्णुर्भोजनम् भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनि पुनर्वसुः उपेन्द्रो वामन प्रांशु अमोघः शुचिरुर्जितः अतीन्द्र सङ्ग्रहः सर्वो धृतात्मा नियमो यमः वेद्यो वैद्यः सदा योगी विरहा माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश वपुः श्रीमान् अमेयात्मा महादृधृत् महेश्वासो मही भर्ता श्रीनिवासस्तताम् गतिः अनिरुद्धः सुरानन्दो गोविन्दो गोविन्दाम्पतिः मरीचिधर्मनोहंसत्सुपर्णो भुजगोत्तमः हिरण्यनाभसुत्तपः पद्मनाभ प्रजापतिः अमृत्युस्सर्वदृक्सिंह सन्धाता सन्धिमान् स्थिरः अजो दुर्मर्षणशाता विश्रुतात्मा सुरारिः गुरुर्गुरुतमो धाम सत्यः सत्यः पराक्रमः निमिषो निमिषस्रग्विवाचस्पतिरुदारधिः अग्रणी ब्राह्मणि श्रीमान् न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् आवर्तनो निवृत्तात्मा संवृत्तः संप्रमर्दनः अह संवर्तको वह्निरणीलोधरिणद्धरः सुप्रसाद प्रसन्नात्मा विश्वधृग् विश्वभुग्विभुः सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः वृषा हि वृषभो विष्णुर्वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः नैकरूपो बृहद्रुपः शिपिविष्टप्रकाशनः ओजस्तेजोद्युतिद्धरः प्रकाशात्मा प्रतापनः ऋद्धस्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः अमृतांशुद्भवो भानुशशबिन्दुः सुरेश्वरः औषधम् जगतस्येतु सत्यधर्म पराक्रमः भूतभव्यभवन्नाथ पवन पावनो नरः कामः कामकृत्कान्तः कामः कामप्रद प्रभुः युगादिकृद्युगावर्तो नैकमायो महाशनः अदृशो व्यक्तरूपश्च सहस्रचिदनन्तजित् इष्टो विशिष्टशिष्टेष्टः शिखण्डी नहुषो वृषः क्रोधः क्रोधकृत्कर्ता विश्वबाहुर्महिद्धरः अच्युत प्रथित प्राण प्राणदो वासवानुज अपानिधीरधिष्ठानम् प्रमत्त प्रतिष्ठितः स्कन्द स्कन्दधरो धुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेव पुरन्दरः अशोकतारणस्तारः शूरशौरिर्जनेश्वरः अनुकूलश्च कावर्त पद्मि पद्मनिभेक्षणः पद्मनाभोरविन्दाक्ष पद्मगर्भशरीरभृत् महद्दिरुद्धो वृद्धात्मा महाक्षो गरुडध्वजः अतुलः शरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षण लक्षण्यो लक्ष्मीवान्समितिञ्जयः विक्षरो रोहितो मार्गो हेतुर्दामोदरः सः महीधरो महाभागो वेगवानमिताशनः उद्भवक्षोभणो देवः श्रीगर्भः परमेश्वरः करणम् कारणम् कर्ता विकर्ता गहनो गुह व्यवसायो व्यवस्थानः संस्थानस्थानदो ध्रुव परर्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः रामो विरामो विरतो मार्गो नेयो नयोन्नयः वीरशक्तिमताम् श्रेष्ठो धर्मो धर्मविरुत्तमः वैकुण्ठ पुरुष प्राण प्राणद प्रणमः पृथुः हिरण्यगर्भशत्रुघ्नो व्याप्तो वायुरथोक्षजः ऋतुः सुदर्शनः काल परमेष्ठि परिग्रह उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारस्थावरस्थाणु प्रमाणम् विजमम् व्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः अनिर्विण्णस्थविष्टो भूर्धर्मयूपो महामखः नक्षत्रम् नेमिर्नक्षत्री क्षमक्षामः समीहनः यज्ञ ईजो महेजश्च क्रतुः सत्रम् सताम् गतिः सर्वदर्शी निवृत्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सूरतस्तु मुखः सूक्ष्मः सुघोषः सुखदः सुहृत् मनोहरोजितः क्रोधो वीरबाहुर्विदारणः स्वापनस्वं वशो व्यापी नैकात्मा नैककर्म कृत् वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः धर्मगुद्धर्मकृद्धर्मी सदसच्चरमक्षरम् अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः गभस्ति नेमि सत्त्वस्थः सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भुरिदक्षिणः सोमपोमृतपः सोमः पुरुजित्पुरुसत्तमः विनयोजयः सत्यसन्धो दाशाढः सात्वताम् पतिः जीवो विनयिता साक्षी मुकुन्दो मितविक्रमः अम्भो निधीरनन्तात्मा महोदधीशयोऽन्तकः अजो महार्ह स्वाभाव्यो जिता मित्रप्रमोदनः आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गकृतान्तकृत् महावराहो गोविन्दः सुषेणः कनकाङ्गदि गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः वेधास्वाङ्गोजितकृष्णो दृढः सङ्कर्षणोच्युतः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनः भगवान् भगवानन्दी वनमाली हलायुध आदित्यो ज्योतिरादित्यः सहिष्णुर्गति सत्तमः सुधन्वाखण्ड परशुर्दारुणो द्रविणप्रदः दिविस्पृक् सर्वदृग्व्यासो वाचस्पतीरयो निजः त्रिसामासामगस्सामन्निर्वाणम् भेषजम् भिषक् सन्न्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः श्रीवत्सवक्षा श्रीवासः श्रीपतिः श्रीमताम्बरः श्रीद श्रीश श्रीनिवास श्रीनिधि श्रीविभावनः श्रीधर श्रीकर श्रेय श्रीमान् लोकत्रयाश्रयः स्वक्ष स्वङ्गश्चतानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्कीर्तिच्छिन्न संशयः उदीर्णः सर्वतश्चक्षुरनिश्यश्चाश्वतः स्थिरः भूषयो भूषणो भूतिर्विशोकः शोकनाशनः अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः अनिरुद्धो प्रतीरथ प्रद्युम्नो मितविक्रमः कालनेमिनिहाशौरिशूरशूरजनेश्वरः त्रिलोकात्मा त्रिलोकेश केशवः केशिहा हरिः कामदेवः कामपालः कामिकान्तः कृतागमः अनिर्देशवपुर्विष्णुविरोनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः स्तव्यस्तव प्रियस्तोत्रम् स्तूतस्तोतारणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः मनोजवस्तीर्थकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुमनाहविः सद्गतिः सत्कृतिः सत्ता सद्भुतिः सत्परायणः शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः भूतावासो वासुदेवः सर्वासुनिलयोन्नलः दर्पहादर्पदो दृप्तो दुर्धरोऽथापराजितः विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तशतमूर्तिशताननः एको नैकत्सवक्कम् किम् यत्तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदि विरहाविषमशृन्यो भृताशीलचलश्चलः अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृत् सुमेधामेधजो धन्यः सत्यमेधाधराधरः तेजो वृषो द्युतिद्धरः सर्वशास्त्रभृताम्बरः प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिः शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः महारुदौ महागर्तौ महाभूतौ महानिधिः కుముద కుందర కుంద పర్జన్య పవనో నిలః అమృతాశో మృత వపుః సర్వజ్ఞ సర్వతోముఖః సులభ సువ్రత సిద్ధ శత్రుజిచ్ఛత్రుతాపనః న్యగ్రోధోదుంబరోచ్ఛత్తచాణూరాంధ్రనిషూదనః సహస్రాచీ సప్తజిహ్న సప్తైధా సప్తవాహనః అమూర్తీరలఘోచింత్యో భయకృద్భయనాశనః అణుబృహతృశ స్థూలో గుణభృన్నిర్గుణో మహాన్ అధృతస్వధృత స్వాస్య ప్రాంగ్వంశో వంశవర్ధనః భారభృత్కథితో యోగీ యోగిశః సర్వకామదః ఆశ్రమశ్రవణ క్షామః సుపర్ణో వాయువాహనః ధనుర్ధరో ధనుర్వేదో దండో దమయితాదమః అపరాజితః సర్వసహో నియంతా నియమోయమః సత్వవాన్ సాత్విక సత్య సత్య ధర్మ పరాయణః అభిప్రాయ ప్రియార్హోర్హ ప్రియ ప్రీతివర్ధనః విహాయ సరతి జ్యోతిర్సురుచిహృత భుక్ విభు రవిర్విరోచన సూర్య సవితార విలోచనః అనంతహుత భుక్భోక్తా సుఖదో నైకదోగ్రజః అనిర్విణ్ణ సదామర్షీ లోకాధిష్టాన్మద్భుతః సనాతనత్తమః కపిలః కపిలవ్యయః స్వస్తిదః స్వస్తి కృత్ స్వస్తి స్వస్తి భుక్ స్వస్తి దక్షిణః అరౌద్రః కుండలీ చక్రీ విక్రమ్యూర్జిత శాసనః శబ్దాతిగః శబ్దసః శిశిరః శర్వరీకరః అక్రూరః పేషలో దక్షో దక్షిణ క్షమిణాంబరః విద్వత్తమో వీతభయ పుణ్యశ్రవణ కీర్తనః ఉత్తారణో దుష్కృతిః పుణ్యో దుస్వప్ననాశనః విరహారక్షణ సంతో జీవన పర్యవస్థితః అనంతరూపోనంత శ్రీర్జితం మన్యుర్భయాపః చతురస్రో గంభీరాత్మా విదిశో వ్యాదిశో దిశః అనాదిర్భూర్భువో లక్ష్మీ సువీరో రుచిదాంగదః జననో జన జన్మాది భీమో భీమ పరాక్రమః ఆధారనీలయో ధాతా పుష్పహాస ప్రజాగరః ఊర్ధ్వః సత్పథాచార ప్రాణద ప్రణవప్పణః ప్రమాణం ప్రాణనీలయః ప్రాణభృత్ ప్రాణజీవనః తత్వం తత్వవిదేకాత్మా జన్మ మృత్యుజరాతిగః భూర్భువస్వస్తరుస్తారః సవితా ప్రపితామహః యజ్ఞో యజ్ఞపతిర్యజ్వా యజ్ఞాంగో యజ్ఞవాహనః యజ్ఞభృంద్యజ్ఞకృంద్యజ్ఞీ యజ్ఞభుగ్యజ్ఞసాధనః యజ్ఞాంతకృద్యజ్ఞగుహ్య మన్న మన్నార ఏవ చ ఆత్మయోని స్వయం జాతో వైఖానః సామగాయనః దేవకీనందన స్రష్టా క్షితిశః పాపనాశనః శంఖభృన్నందకీ చక్రీ శాంఘన్వాగదాధరః రథాంగపాణిరక్షోభ్యః సర్వప్రహరణాయుధః శ్రీ సర్వప్రహరణాయుధ ఓం నమ ఇతి వనమాలీ గదీశాంగీ శంఖీ చక్రీ చ నందకీ శ్రీమన్నారాయణో విష్ణుర్వాసుదేవోభిరక్షతు వనమాలీ గదీశాంగీ శంఖీ చక్రీ చ నందకీ శ్రీమన్నారాయణో విష్ణుర్వాసుదేవోభిరక్షతు వనమాలీ గదీశాంగీ శంఖీ చక్రీ చ నందకీ శ్రీమన్నారాయణో విష్ణుర్వాసుదేవోభిరక్షతు ఇతీదం కీర్తనీయస్య కేశవస్య మహాత్మనః నామ్నాం సహస్రం దివ్యానామశేషేణ ప్రకీర్తితం య ఇదం శృణుయా నిత్యం యశ్చాపి పరికీర్తయేత్ నాశుభం ప్రాప్నుయాత్ కించిత్ సోముత్రేహ చ మానవః వేదాంతకో బ్రాహ్మణ స్యాత్ క్షత్రియో విజయీ భవేత్ వైశ్యోధన సమృద్ధ స్యాత్ క్షుద్రః సుఖమవాప్నుయాత్ ధర్మార్థీ ప్రాప్నుయాత్ ధర్మమర్థార్థీ చార్థమాప్నుయాత్ కామాన్ వాప్నుయాత్ కామీ ప్రజార్థీ చాప్నుయాత్ ప్రజః భక్తిమాన్యః సదోత్థాయ శుచిస్తంగత మానసః సహస్రం వాసుదేవస్య నామ్నామేతత్ ప్రకీర్తయేత్ యశః ప్రాప్నోతి విపులం జ్ఞాతి ప్రాధాన్యమేవ చ అచలాం శ్రీయమాప్నోతి శ్రేయ ప్రాప్నోత్యనుత్తమం న భయం క్వచిదాప్నోతి వీర్యం తేజశ్చ విందతి భవత్యరోగో ద్యుక్తిమాన్ బలరూపగుణాన్వితః रोगातो मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् भयानुच्येत भीतस्तु मुच्येतापन्न आपदः दुर्गाण्यतीतरत्याशु पुरुष पुरुषोत्तमम् सुवन्नाम सहस्त्रेण नित्यम् भक्ति समन्वितः वासुदेवाश्रयो मर्त्यो वासुदेव परायणः सर्व पाप विशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेव भक्तानाम् शुभम् विद्यते क्वचित् जन्म मृत्यु जरा व्याधि भयम् नैवोपजायते इमम् स्तवमधीयान श्रद्धा भक्ति समन्वितः युज्येतात्मसुखक्षान्ति श्रीधृति स्मृति कीर्तिभिः न क्रोधो न च मात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृत पुण्यानाम् भक्तानाम् पुरुषोत्तमे दौस्त चन्द्रार्क नक्षत्राखम् दिशो भूर्महोदधिः वासुदेवस्य वीर्येण विधृतानि महात्मनः ससुरासुर गन्धर्वम् स यक्षोरगराक्षसम् जगद्वशे वर्ततेदम् कृष्णस्य सचराचरम् इन्द्रियाणि मनोबुद्धिः सत्त्वम् तेजो बलम् धृतिः वासुदेवात्मकान्याहु क्षेत्रम् क्षेत्रज्ञ एव च सर्वागमानामाचार प्रथमम् परिकल्पितः आचार प्रथमो धर्मो धर्मस्य प्रभुरच्युतः ऋषय पितरो देवा महाभूतानि धातवः जङ्गमाजङ्गमम् चेदम् जगन्नारायणोद्भवम् योगज्ञानम् तथा साङ्ख्यम् विद्या शिल्पादि कर्म च वेदा शास्त्राणि विज्ञानमेतत् सर्वम् जनार्दनात् एको विष्णुर्महद्भूतम् पृथग् भूतान्यनेकशः त्रिलोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः इमम् स्तवम् भगवतो विष्णोर्व्यासेन कीर्तितम् पठेज्ञ इच्छेत् पुरुष श्रेय प्राप्तुम् सुखानि च विश्वेश्वरमजम् देवम् जगत प्रभवाप्ययम् भजन्ति ये पुष्कराक्षम् न ते यान्ति पराभवम् ॐ नमैति अर्जुन उवाच पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम भक्तानामनुरक्तानाम् त्राता भव जनार्दन श्रीभगवान उवाच यो माम् नाम सहस्रेण स्तोतुमिच्छति पाण्डव सोऽहमेकेन श्लोकेन सुत एव न संशय ॐ नमैति व्यास उवाच वासनाद्वासुदेवस्य वासितम् ते जगत्त्रयम् सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते श्रीवासुदेव नमोऽस्तु त ॐ नमैति पार्वत्युवाच केनोपायेन लघुना विष्णोर्नाम सहस्रकम् पठ्यते पण्डितैर्नित्यम् श्रोतुमिच्छाम्यहम् प्रभो ईश्वर उवाच श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तन्तुल्यम् राम नाम वरानने श्रीराम नाम वरानन ॐ नमैति ब्रह्मोवाच नमोऽस्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः सहस्रकोटियुगधारिण ॐ नमैति सञ्जय उवाच यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम श्रीभगवान उवाच अनन्याश्चिन्तयन्तो माम् ये जनाः पर्युपासते तेषाम् नित्याभियुक्तानाम् योगक्षेमवहाम्यहम् परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् धर्म संस्थापनार्थाय सम्भवामि युगे युगे आर्ता विषण्णा शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः సంకీర్తనారాయణ శబ్దమాత్రం విముక్త దుఃఖా సుఖినో భవంతు. కాయేన వాచా మనసేంద్రియేర్వా బుధయాత్మనా వా ప్రకృతే స్వభావాత్ కరోమి యజ్ఞత్ సకలం పరస్మై శ్రీమన్నారాయణేతి సమర్పయామి. ఇతి శ్రీమత్ శ్రీ విష్ణు సహస్రనామ స్తోత్రం సంపూర్ణం.